अथ तृतीयः पादः भूवादयो धातवः उपदेशे जनुनासिक इत् हलन्त्यं न विभक्तौ तुस्माः आदिर्ञिटुडवः शः प्रत्ययस्य चुटु लशक्वतद्धिते तस्य लोपः यथासङ्ख्यमनुदेशः समानाम् स्वरितेनाधिकारः अनुदात्तङित आत्मनेपदम् भावकर्मणोः कर्तरिकर्मव्यतिहारे न गतिहिंसार्थेभ्यः इतरेतरान्योन्योपपदाच्च नेर्विषः परिव्यवेभ्यः क्रियः विपराभ्याञ्जेः आङ्मोदो नास्य विहरणे क्रीडोऽनुसम्परिभ्यश्च समवप्रविभ्यस्थः प्रकाशनस्थेयाख्ययोश्च उदोनूर्ध्वकर्मणि उपान्मन्त्रकरणे अकर्मकाच्च उद्विभ्यान्तपः आङ्मोऽयमहनः समोगं मृच्छिप्रच्छिस्वरत्यर्तिश्रुविधिभ्यः निसमुपविभ्योह्वः स्पर्धायामाङः गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु क्रियः अधेः प्रसहने वेश्शब्दकर्मणः अकर्मकाच्च सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः कर्तृस्थे च शरीरे कर्मणि वृत्तिसर्गतायनेषु क्रमः उपपराभ्याम् आङ उद्गमने वेः पादविहरणे प्रोपाभ्यां समर्थाभ्याम् अनुपसर्गाद्वा अपह्नवेज्ञः अकर्मकाच्च सम्प्रतिभ्यामनाध्याने भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः व्यक्तवाचां समुच्चारणे अनोरकर्मकात् विभाषाविप्रलापे अवाद्ग्रह समःप्रतिज्ञाने उदश्चरः सकर्मकात् समस्तृतीयायुक्तात् दाणश्च साचेच्चतुर्थ्यर्थे उपाद्यमस्वकरणे ज्ञाश्रुस्मृदृशां सनः नानोर्ज्ञः प्रत्याङ्भ्यां श्रुवः शदेशितः म्रियतेर्लुङ्लिङोश्च पूर्ववत्सनः आं प्रत्ययवत्कृञोऽनुप्रयोगस्य प्रोपाभ्यान्युजेरयज्ञपात्रेषु समः क्ष्णुवः भुजो न वने नेरणो यत्कर्मणौ चेत् सकर्तानाध्याने भीस्म्योर्हेतुभये गृधिवञ्च्योः प्रलम्भने लियः सम्माननशालिनीकरणयोश्च मिथ्योपपदात्क्रियोऽभ्यासे स्वरितङितः कर्त्रभिप्राये क्रियाफले अपाद्वदः निचश्च समुदाङ्भ्योऽयमो ग्रन्थे अनुपसर्गाज्ञः विभाषोपपदेन प्रतीयमाने शेषात्कर्तरि परस्मैपदम् अनुपराभ्यां क्रियः अभिप्रत्यतिभ्यः क्षिपः प्राद्वहः परेर्मृषः व्याङ्परिभ्यो रमः उपाच्च विभाषाकर्मकात् बुधयुधनशजनेङ्प्रुदृसृभ्योणेः निगरणचलनार्थेभ्यश्च अणावकर्मकाच्चित्तवत्कर्तृकात् न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः वाक्यशः द्युद्भ्यो लुङि वृद्भ्यस्य सनोः लुटि च क्लृपः भूवादयः क्रीडोऽनुवेः पादम् म्रियतेः प्राद्वहस्त्रयोदश इति तृतीयः पादः।